ॐ सहनावतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः। श्रीगुरुभ्यो नमः। हरिः ओम्।
धन्यवादः भगिनि। सर्वेभ्यो नमः। सर्वेषां स्वागतम् अस्मिन् वर्गे। अस्माकं प्रवर्तमानः विषयः अस्ति तत्र सङ्ख्याः इति। अस्मिन् विषये वयं परिचयं प्राप्तवन्तः, अपि तदनन्तरं तत्र सङ्ख्यासु भेदः वर्तते। तत्र नाम तत्र एकतः चतुर्पर्यन्तम् एका रीतिः अस्ति, तदनन्तरं पञ्च आरभ्य तत्र नवदशपर्यन्तं तत्र अन्या रीतिः अस्ति, तदनन्तरं शतपर्यन्तं नूतना रीतिः इति एतत् दृष्टवन्तः गतवर्गे। अतः तत्र वयम् अद्य किं कुर्मः, तत्र प्रयोगः एव अद्य कुर्मः इति मन्ये। तत्र अभ्यासः अपि किञ्चित् कुर्मः, तदनन्तरं ये अभ्यासाः सन्ति गीतासोपाने तम् एव अनुसृत्य अद्यतनवर्गः भवति। तत्र करपत्रम् इदानीं मास्तु, किन्तु तत्र इदानीं तत्र साक्षात् पाठे तत्र सङ्ख्यासु लिङ्गभेदः इति तत्र दशमपाठः अस्माकम् अस्ति, षष्ठ तत्र पुटसङ्ख्या अस्ति षष्टिः। तत्र षष्टितमे पुटे यदस्ति तद् जानीमः, किन्तु तत्र अग्रिमे पुटे तत्र अवधेयम् इति अस्ति, तत्र तद् एकवारं पश्यामः। वेदा भगिनी नमस्कारः।
नमस्कारः
भगिनि। अस्तु, अतः तत्र उषा भगिनी इदानीं वदतु, तत्र एकतः चतुर्पर्यन्तं रीतिः का, तत्र पद्धतिः का?
पुंलिङ्गे स्त्रीलिङ्गे नपुंसकलिङ्गे
न महोदय एकः कः तत्र पद्धतिः का वर्तते, नाम तत्र स्थितिः का, तत्र एकतः चतुर्पर्यन्तम्?
एकतः चतुर्पर्यन्तं रूपभेदः पुंलिङ्गे स्त्रीलिङ्गे नपुंसकलिङ्गे।
हा, अतः तत्र यदि पुल्लिङ्गरूपं स्त्रीलिङ्गरूपं समानं न भवति इति खलु? हा, अस्तु, समीचीनं। तत्र एकतः चतुर्पर्यन्तं तादृशम् अस्ति। तत्र चतुर् इति पदस्य रूपाणि वदतु, तत्र किं भवति?
चत्वारः, चतस्रः, चत्वारि
इति। हा, इदानीं तत्र उदाहरणं स्वीकृत्य वदतु, तत्र चत्वारः,
चत्वारः पुरुषः उपविश्य,
पुरुषाः,
चत्वारः, चत्वारः पुरुषाः उपविशन्ति, चतस्रः महिलाः तिष्ठन्ति, चत्वारि फलानि पतन्ति।
पतन्ति, समीचीनम्, उत्तमम्। अस्तु, इदानीं गीताञ्जलि भगिनी तत्र इदानीं तत्र त्रयः उपयुज्य रूपभेदं कथं भवति इति वदतु भगिनि।
हा महोदय, त्रयः वृक्षाः फलन्ति, तिस्रः वार्ताः भवन्ति, त्रीणि चित्राणि लिखन्ति।
त्रीणि चित्राणि लिखन्ति, तत् त्रीणि चित्राणि लिखन्ति नाम कर्ता कः, तत्र कर्ता कः
इत्युक्ते किं, त्रीणि चित्राणि, त्रीणि चित्राणि सा लिखन्ति,
न
ते ताः त्रीणि चित्राणि लिखन्ति। क्षम्यतां महोदय।
अस्तु अस्तु अस्तु, इदानीम् अस्तु अस्तु, हा, त्रीणि इति अस्ति, समीचीनम्। अस्तु, इदानीं तत्र ललिता भगिनी, इदानीं तत्र द्वि मध्ये तत्र रूपभेदः कथं भवति? द्वि
महोदय।
हा, सत्यं भगिनि। हा
हा,
सत्यं हा द्वौ द्वौ इति उदाहरणं
द्वौ बालकौ हसन्ति हसतः
हा हसतः अस्तु
द्वौ बालकौ हसतः द्वे स्त्रीलिङ्गे स्त्रीलिङ्गे समानमेव न द्वौ
न न द्वे द्वे इति स्त्रीलिङ्गे द्वे न न किन्तु किमपि स्त्रीलिङ्गपदं स्वीकरोतु
द्वे 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 बालिकाः
बालिकाः तु बहुवचने अस्ति खलु
द्वे बालिकौ
न एकवचने किमस्ति
एकवचने बालिका बालिके
इदानीं अस्तु
द्वे बालिके द्वे बालिके लिखन्ति
न द्वे अस्ति खलु द्वे बालिके
हसतः
अस्तु ते न लिखतः इदानीं केवलं हसतः
हसतः
अस्तु न लिखतः ते बालिके ललिता भगिनी
न लिखतः
न लिखतः अस्तु केवलं हसतः अस्तु वर्गः तु
केवलं हसतः
किं भवति वर्गे एतादृशी स्थितिः भवति चेत् यदि सर्वे छात्राः केवलं हसन्ति किन्तु अस्तु समीचीनम् अस्तु अग्रे नपुंसकलिङ्गे
नपुंसकलिङ्गे द्वे द्वे एव न
सत्यं
फलानि
न न न पुनः फलं फलम् इति पदस्य प्रथमविभक्ति
फलं फले फलानि फलं फले फलानि
अस्तु अतः द्वे अस्ति चेत् किं भवति भवती जानाति एव तत्र फलम् इत्युक्ते किं वचनं किं फलमिति वच पदस्य वचनं किं
फलं नपुंसकलिङ्गे अस्ति
न न वचनं वचनं
नपुंसकलिङ्गे अस्ति
अस्तु वचनं
नपुंसकलिङ्गे
वचनं
फलं फलं प्रथम एकवचनम् अस्ति
अस्तु फले
वचनं फलं फले फलानि
सत्यं फले इति पदस्य वचनं किं
फलम् एकवचनमस्ति
फले
फलं फले इति द्विवचनमस्ति द्विवचनमस्ति
अस्तु अतः किं भवति द्वे अस्ति द्विवचनं अस्तु द्वे तत्र एकं फलम् एकं फलम् इदानीं तत्र अग्रे किं भवति एकं फलम् इदानीं द्वे
एकं फलं द्वे फले
हा तावदेव हा तावदेव द्वे फले इति आगतं खलु इदानीं
त्रीणि फलानि
हा 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 समीचीनं त्रीणि फलानि द्वे फले इति समीचीनम् अस्तु
अस्तु
चिन्ता मास्तु भगिनि अतः अभ्यासः वारं वारं कुर्मः चेत् एव तत्र सर्वं स्थापितं भवति चिन्ता मास्तु भगिनि सुजाता भगिनी नमस्कारः
नमस्ते महोदय
नमस्कारः भगिनि तत्र पुटसङ्ख्या अस्ति 60 भगिनि षष्टिः अपि तत्र पाठः आरभ्यते वंशीसुधा भगिनी नमस्कारः
नमस्ते महोदय महोदय अहं किञ्चित् अनन्तरं
वक्तुं अस्तु भगिनि अस्तु अस्तु भगिनि चिन्ता मास्तु अस्तु तर्हि अग्रे तत्र वेदा भगिनी इदानीं तत्र एकतः चतुर्पर्यन्तं तत्र लिङ्गभेदः अपि रूपभेदः अस्ति इति ज्ञातवन्तः इदानीं ततः अग्रे पञ्चतः स्थितिः का भवति भगिनि किञ्चित् वदति वा
पञ्च स्थितिः पञ्च एव भवति एकवचने
पञ्चतः पञ्चतः किं भवति? पञ्च इति पदस्य किञ्चित् वदतु, तदनन्तरं पञ्चतः अग्रे किं भवति इति वदतु.
पञ्चतः एकोनविंशतितः पञ्च आरभ्य एकोविंशतितः तत्र
तः इति नाम तत्र आरभ्य एव खलु. अतः पञ्चतः
ओ पञ्चतः इत्युक्ते किं महोदय? अहं न जानामि.
पञ्चतः नाम तत्र पञ्च इति संख्या अस्ति खलु?
आम् आम् आम्.
तत्र लिङ्गभेदः अस्ति वा पञ्च इति पद?
कोऽपि लिङ्गभेदः नास्ति. पञ्च
नास्ति. अस्तु, अतः तत्र पञ्चपुरुषाः, पञ्चमहिलाः अथवा पञ्च पुस्तकानि फलानि फलानि, तत्र भेदः नास्ति. समीचीनम्. इदानीं तत्र षट् अस्ति चेत् तत्र
षट्
तत्र भेदः अस्ति वा?
अष्ट नव दश तत्र कोऽपि भेदः नास्ति.
भेदः अतः तत्र पञ्चतः पञ्च आरभ्य भेदः नास्ति इति वदामः. किन्तु तत् तत् सर्वदा तादृशमेव भवति वा अथवा तत्र अग्रे भेदः वर्तते न वा? किं
भेदः वर्तते? भेदः इति किमर्थं न जानामि, परन्तु एकोनविंशतितः पञ्च पञ्च षट् षट् एवं रूपमेव भवति, परन्तु विंशति तत्र विंशति आरभ्य रूपं भिन्नं भवति. इत्युक्ते तत्र स्त्रीलिङ्गे तस्य रूपं भवति.
हा अस्तु अस्तु, समीचीनं समीचीनम्. अस्तु इदानीं समीचीनं भगिनि. अस्तु इदानीं तत्र धन्यवादः भगिनि. इदानीं नरेश् महोदय तत्र अवधेयम् इति अस्ति तत्र एकाधिक षष्टितमे पुटे, तत् पठति वा महोदय?
आं महोदय. एकं द्वे त्रीणि चत्वारि इत्यादयः संख्यावाचकशब्दाः अपि विशेषणानि भवन्ति.
हा विशेषणानि इति जानीमः, नाम तत्र समानाविभक्तिः, समानवचनं, समानलिङ्गं,
समानलिङ्गम्.
अस्तु इदानीम् अग्रे
एकं द्वे त्रीणि चत्वारि इत्येतेषां चतुर्णाम् एव त्रिषु लिङ्गेषु भिन्नानि रूपाणि भवन्ति, ततः अग्रे त्रिषु अपि लिङ्गेषु समानं रूपं भवति.
हा तत्र इदानीं तत्र त्रिषु इति पदस्य विभक्ति का तत्र?
सप्तमी.
सप्तमी तत्र त्रिषु इति विशेषणम् अस्ति वा तत्र?
आम् त्रिषु विशेषणम् अस्ति.
विशेष्यं किम्?
त्रिषु लिङ्गेषु.
हा त्रिषु लिङ्गेषु इति समीचीनं. हा त्रिषु लिङ्गेषु तत्र त्रिषु अपि लिङ्गेषु समानरूपं समानं रूपं भवति. अपि तत्र चतुर्णाम् इति तत्र विभक्ति का?
षष्टिविभक्ति.
षष्टिविभक्ति. हा तत्र चतुर्णां नाम तत्र चतुर्णाम् इति तत्र किम् अस्ति? तत्र शब्दाः तत्र चत्वारः शब्दाः सन्ति. तेषां
तेषाम् एकं द्वे त्रीणि चत्वारि.
हा इति तत्र अतः तत्र चत्वारः शब्दाः अथवा चत्वारि पदानि खलु. हा तत्र शब्दः अस्ति चेत् पुल्लिङ्गः, अतः चत्वारः शब्दाः अथवा चत्वारि पदानि. तत्र तेषां तेषां चतुर्णाम् इति तत्र लिङ्गेषु भिन्नानि रूपाणि भवन्ति. इदानीम् अग्रे पञ्च इति.
पञ्च इत्यतः आरभ्य नवदशपर्यन्तं संख्यावाचकशब्दाः नित्य बहुवचनान्ताः भवन्ति.
हा नित्य बहुवचनान्ताः भवन्ति. यावत्पर्यन्तं? नवदश पर्यन्तं.
नवदशपर्यन्तं.
नवदशपर्यन्तं. पञ्च आरभ्य नवदशपर्यन्तं संख्यावाचकशब्दाः नित्य बहुवचनान्ताः भवन्ति. यदि केवलं तावत् पठामः तत्र भ्रमः भवति. अस्तु तत्र पञ्च अपि तत्र चतुर् त्रि सर्वं बहुवचने एव अस्ति, किमर्थं पुनः एतदेव वदन्ति इति भ्रमः भवति, किन्तु अग्रे पश्यामः. किन्तु तस्मात् प्राक् तत्र पञ्च इत्यतः आरभ्य नवदशपर्यन्तं याः सङ्ख्याः सन्ति तत्र, ताः सङ्ख्याः एकवारं सुजाता भगिनी एकवारं वदति वा, तत्र पञ्च आरभ्य नवदशपर्यन्तं याः सङ्ख्याः सन्ति एकवारं वदति वा?
पञ्च षष्ट सप्त
न न पञ्च षट् सप्त
अष्ट नव दश.
हा तदनन्तरम्
एकादश द्वादश त्रयोदश चतुर्दश पञ्चदश षोडश सप्तदश अष्टादश नवदश.
नवदश समीचीनं. हा अस्तु, इदानीं तत्र यदि एते तत्र एताः सङ्ख्याः सन्ति तत्र तेषां नित्य बहुवचनरूपं बहुवचनान्ताः ते शब्दाः भवन्ति. अस्तु, इदानीं तत्र अष्टन्निति पदस्य तत्र किं लिखितमस्ति भगिनि सुजाता भगिनी अग्रे?
अष्टन् शब्दस्य अष्ट अष्टौ इति रूपद्वयं भवति.
हा तत्र हा अष्टन् इति प्रातिपदिकं तत्र पञ्च आरभ्य तत्र नवदशपर्यन्तं तत्र दश तत्र पञ्चारभ्य दशपर्यन्तं तत्र कोष्टके पश्यतु तत्र अन्तिमवर्णः कः तत्र प्रातिपदिके?
दश नकारान्त.
हा नकारान्त पञ्च अपि नकारान्त षष् इति तत्र षकारान्त किन्तु तदनन्तरं सप्तन् अष्टन् नवन् दशन् तदनन्तरम् एकादशन् द्वादशन् अतः तत्र समानमेव नकारान्तपदमेव भवति किन्तु तत्र षष् इति एक तत्र तस्य षकारान्त तदनन्तरम् अतः तत्र तत् किञ्चित् भिन्नम् अस्ति किन्तु अत्र अष्टन् इति पदस्य तत्र रूपद्वयमस्ति तत्र अष्ट अथवा अष्टौ इति रूपद्वयम् अस्ति किन्तु तत्र अष्टौ इति पश्यामश्चेत् तत्र द्विवचने इति चिन्तनं मास्तु तत्र अष्टौ इति इत्युक्ते पुनः बहुवचने एव अष्ट अपि बहुवचने एव इति चिन्तनीयम् अस्ति. हा किन्तु तत्र रूपद्वयम् अस्ति तत्र अष्टन् इति अतः तत्र किञ्चित् सावधानम् अपेक्षितमस्ति तत्र अत्र प्रायशः न दत्तमस्ति किन्तु तत्र करपत्रे आसीत् इदानीं मास्तु. अस्तु शुभदा भगिनी नमस्कारः. अस्तु इदानीम् अग्रे सरामः तर्हि तत्र नमस्ते भगिनि नमस्कारः तत्र पुटसङ्ख्या अस्ति 61 तत्र स्मः. इदानीं शोभा भगिनी अग्रे पठति वा तत्र अवधेयमिति अस्ति.
आं महोदय विंशतितः नवनवतिपर्यन्तं सर्वेपि सङ्ख्यावाचकशब्दाः एकवचनान्ताः स्त्रीलिङ्गाश्च भवन्ति. विंशतितः नवनवतिपर्यन्तं सर्वेपि एकवचनान्ताः स्त्रीलिङ्गाश्च भवन्ति.
नाम तत्र विंशतिः इति अस्ति चेत् अग्रिमे पुटे तत्र रूपं दत्तं न अग्रिमे पुटे न तत्र कुत्र दत्तमस्ति? ओ अस्तु अस्मिन् अत्र न दत्तमस्ति किन्तु विंशतिः इति तत्र मतिशब्दवत् अस्ति
स्त्रीलिङ्गे अस्ति
स्त्रीलिङ्गे अस्ति ह्रस्व इकारः अन्ते अतः विंशतिः इति
अतः
किं भगिनि कुत्र अस्ति भगिनि?
पेज् 71
एकसप्ततितमः
न तत्र तत्
तत्र नास्ति तत् भिन्न अस्ति
भिन्न अस्ति
पूर्णप्रत्ययान्तः
भिन्न अस्ति भिन्न अस्ति किन्तु तत्र मतिशब्दवत् जानीमः तत्र मतिशब्दस्य इदानीं केवलम् एकवचनरूपमेव तत्र तस्य ज्ञानमेव अपेक्षितं खलु यतोहि तत्र विंशतिः सर्वं तत्र एकवचनान्ताः सन्ति, स्त्रीलिङ्ग अपि सन्ति. अतः तत्र विंशतिः तत्र किं भवति, विंशतिः इति प्रथमविभक्तौ किन्तु एतत् एकवचने एव अस्ति. अतः तत्र मनसि भवती इदानीं एतत् करोतु भगिनि, तत्र मतिः इति वदतु, तदनन्तरं विंशति इति वदतु. किन्तु केवलं प्रथम एकवचनं रूपं स्वीकृत्य विंशतिः इति स्थापयतु तत्र.
कुत्रापि पठितवती महोदय,
करपत्रे अस्ति भगिनि, करपत्रे अस्ति तत्. यदि तत्र करपत्रस्य आवश्यकता अस्ति चेत् अहं पुनः लिङ्क् प्रेषयामि, एकनिमिषः.
अस्तु महोदय, मम पार्श्वे
सङ्ख्या
करपत्रम् अन्वेषणं कृतवती महोदय, नास्ति.
न चिन्ता मास्तु, अहं तत्र लिङ्क् प्रेषयामि भगिनि, एकनिमिषः चाट् मध्ये प्रेषयामि, एकनिमिषः.
546 पेज् अस्ति महोदय
करपत्रे वा? अस्तु भगिनि, धन्यवादः. हा, अत्र चाट् मध्ये लिङ्क् प्रेषितवान् भगिनि.
अस्तु महोदय. पेज् नम्बर् महोदय
किम् उक्तवती सुजाता भगिनी तत्र?
546.
अस्तु, धन्यवादः. धन्यवादः पे महोदय, धन्यवादः.
अस्तु
अस्तु. विंशतिः तत्र तु विभक्ति एकवचने दत्तम्,
एकवचने एव अस्ति एतत्,
एकवचने एव. आम् महोदय, पठामि वा?
केवलम् एकवारं पठतु सर्, विंशतिः.
विंशतिः शब्दः स्त्रीलिङ्गे, विंशतिः, विंशतिं, विंशत्या, विंशत्यै, विंशतये, विंशत्याः विंशतेः, विंशत्याः विंशतेः, विंशत्यां विंशतौ इति मतिः शब्दवत् भवति.
अतः तत्र विंशतितः नवनवतिपर्यन्तं सर्वेपि सङ्ख्यावाचकशब्दाः एकवचनान्ताः स्त्रीलिङ्गाश्च. तत्र किं किं भवति, विंशतिः इति अस्ति, तत्तु इकारन्तं मतिशब्दवत्, तदनन्तरं त्रिंशत् अस्ति,
त्रिंशत् हलन्तशब्दम् अस्ति,
तदनन्तरं चत्वारिंशत्, पञ्चाशत्, तदपि तकारान्त, षष्टिः, तत् ह्रस्वैकारः, अतः
विसर्ग, सप्ततिः, अशीतिः, नवतिः, नवनवतिः पर्यन्तम्,
नवनवतिः पर्यन्तं. यतोहि तत्र सङ्ख्या, तत्र सङ्ख्यायाः गतिः तत्र कीदृशमस्ति इति एतत् जानीमः खलु. तत्र किं भवति, तत्र सङ्ख्यायाः गतिः, तत्र वामतः गति, सङ्ख्यानां वामतः गतिः इति नाम तत्र.
आम् आम् आम्.
हा, अतः तत्र
यथा तत्र नवतिः प्रथमं किं वदनीयं, 99 अस्ति
किमपि तत्र अष्ट, पञ्चनवतिः इति स्वीकृत्य तत्र किं भवति, पञ्चनवतिः इति वदामः, किन्तु तत्र किं भवति, तत्र नवतिः इति एव तत्र द्वितीयसङ्ख्या अस्ति, तदनन्तरं पञ्च इति, तत्र पञ्च अधिक नवतिः इति,
नवतिः, आम्, पञ्चाधिकनवतिः इत्यस्य पञ्चनवतिः इति.
हा, अतः तत्र किम् अस्ति, तत्र पञ्चनवतिः अस्ति चेदपि अन्तिमवर्णः तत्र नवतिः एव अस्ति, अतः तत्र पञ्चनवतिः इति पदस्य विभक्ति विभक्तिमिच्छामश्चेत् तत्र नवतिः
एकवचने एव,
नवतिः, हा, तस्य पदस्य विभक्ति जानीमश्चेत् पञ्चनवतिः अपि स्थापितुं शक्नुमः. अतः सुलभमेव, अतः तत्र केवलं तत्र विंशतिः, त्रिंशत्, चत्वारिंशत्, तत्र विंशतिः, षष्टिः, सप्ततिः, अशीतिः, नवतिः, तत्र ह्रस्वैकारन्त, तदनन्तरं त्रिंशत्, चत्वारिंशत्, पञ्चाशत्, तावदेव खलु. हा, अतः तत्र केवलं द्वैविध्यम् अस्ति, तत्र सकारान्तपदं वा ह्रस्व इकारान्तपदं वा, तावदेव. अस्तु, अतः तत्र एकवचनान्ताः स्त्रीलिङ्गाः च भवन्ति इति तत्र दत्तमस्ति. अतः तत्र किं भवति, विशेषण, तत्र सङ्ख्या तु विशेषणम् एव, किन्तु तत्र एकवचनान्ताः एव भवन्ति इति तत्र नियमः अस्ति. अतः तत्र यदि तत्र वयं वक्तुम् इच्छामः तत्र जनाः तत्र कति जनाः सन्ति विंशतिः जनाः सन्ति इति एव भवति हा न तु तत्र विंशतिः इति पदं स्वीकृत्य तत्र ह्रस्वैकारान्तपदं मतिः मती मतयः अस्तु विंशतयः जनाः सन्ति इति न वदामः
तत्र महोदय तत्र जनाः अपि नित्य बहुवचने अस्ति जनाः अपि नित्य बहुवचने
न न जनाः किमर्थं न जनः तु एकवचने अपि भवितुम् अर्हति
एकवचने किन्तु तत्र अर्थं वदामि महोदय जनाः इत्युक्ते
अस्तु पुरुषः स्वीकुर्मः अस्तु विंशतिः पुरुषः स्वीकुर्मः अस्तु
न मम प्रश्नः आसीत् तत्र विंशतिः जनः विंशतिः जनाः द्वे अपि इत्युक्ते सर्वः इति बहुवचने अर्थे बहुवचने अस्ति विभक्ति जानामि महोदय एकवचने एव अस्ति किन्तु तत्र पीपल् इति अस्ति इति कृत्वा
सत्यं भगिनि किन्तु तत्र अतः एव तत्र उदाहरणं वक्तव्यमस्ति तत्र नाम विंशतिः महिलाः विंशतिः पुस्तकानि यत्किमपि भवतु तत्र विंशतिः विंशति एव तिष्ठति यद्यपि तत्र विशेषणभावः अस्ति किन्तु तत्र विशेषणभावः प्रकटं न भवति तत्र प्रकटं नाम तत्र यदि तत्र एकः बालकः तत्र जानीमः एकः पुल्लिङ्गरूपम् अस्ति इति अत्र तु तादृशी परिस्थितिः नास्ति तत्र नियतवचनं नियतलिङ्गम् इति वदामः तत्र तस्य परिवर्तनं न कदापि भवति इति
आं महोदय तत्र विंशतितः नवविंशतिपर्यन्तं विशेषणं न भवति
न विशेषणं भवति विशेषणं तत्र विशेषणम् अस्ति किन्तु तत्र विशेषणम् अस्ति इति कृत्वा तत्र विशेषणं न विशेषणम् अस्ति भगिनि किन्तु यदा विशेषणम् इति स्वीकुर्मः तत्र किं भवति तत्र विंशतिः तत्र महिलाः सन्ति इति
किं वक्तुम् इष्टवती इत्युक्ते महोदय तत्र रूपपरिवर्तनं न भवति विशेषणं भवति किन्तु महिलाः इति अस्ति चेदपि विंशतिः एव भवति
लिङ्गभेदः न भवति लिङ्गभेदः न भवति अपि एतद् विंशतिः एकवचने अस्ति महिलाः बहुवचने अस्ति किन्तु क्लेशः नास्ति तत्र यतोहि तत्र वचन विंशतिः इति पदस्य वचनं न परिवर्तितुं शक्नुमः अपि तत्र लिङ्गमपि न परिवर्तितुं शक्नुमः तत्र विंशतिः महिला तत्र अस्तु स्त्रीलिङ्गे एव अस्ति इति वक्तुं शक्नुमः अतः विंशतिः पुस्तकानि इति स्वीकुर्मः
तदेव महोदय तत्र परिवर्तनं विशेषणं भवति किन्तु अन्य पदानां वत् किं तत्र म्याच् न भवति
अतः तत्र विशेषणविशेष्यं तयोः मध्ये यः सम्बन्धः अस्ति तत्र निकषाः के तत्र समानलिङ्गं समानवचनं समानविभक्तिः तत्र तु लिङ्गपरिवर्तनं न भवति वचनपरिवर्तनं न भवति किन्तु विभक्तिपरिवर्तनं आवश्यकं भवति अतः तत्र यदि तत्र विंशतिः पुरुषाः सन्ति इदानीं तत्र विंशत्या पुरुषैः सह तत्र रमेशः ग्रामं गच्छति इति हा तत्र विंशत्या इति विभक्तिरूपम् अपेक्षितमस्ति यतोहि तत् विशेषणम् अस्ति
तत्र विशेषणं भवति
अतः तत्र केवलं तत्र किं दृश्यते इत्युक्ते तत्र विभक्तिपरिवर्तनं दृश्यते अन्यत् किमपि न दृश्यते किन्तु विशेषणविशेषविशेषभावः अस्ति एव तत्र अस्तु समीचीनम् अस्तु अपि अग्रे तत्र शतम् इति आरभ्य तत्र गीताञ्जलि भगिनी तत्र शतम् इति कीदृशपदम्
शतं शब्दः नपुंसकः पुंलिङ्गश्च
तत्र शतम् इति शब्दस्य तत्र नपुंसकलिङ्गे अपि भवितुम् अर्हति पुल्लिङ्गे अपि भवितुम् अर्हति
अस्तु
अपि प्रायशः तस्य अपि रूपाणि अत्रैव दत्ता हा तत्र शतम् इति नपुंसकलिङ्गे अत्र दत्तमस्ति करपत्रे तत्र शतं शतं शतेन शताय शतात् शतस्य शते इति अतः तत्र
अत्र तत्र एकमेव पदं पुंलिङ्गं वा नपुंसकलिङ्गं वा एकाधिकशतम् इत्युक्ते किं तत्र अपि स्त्रीलिङ्गं भवति
वा न स्त्रीलिङ्गं न भवितुम् अर्हति एकाधिकशतम् इत्युक्ते तत्र केवलं नपुंसकलिङ्गपदं वा अथवा पुल्लिङ्गपदं तावदेव
अस्तु इत्युक्ते शतम् अपि च शतं तः अग्रे पुंलिङ्गं नपुं
तत्र शततः इति एव भवति खलु शतं तः इति न शततः इति खलु
केवलशत किन्तु मम प्रश्नः तु शतं शतं तु अवगतं तस्य अग्रे किं भवति तत्र
तस्य अग्रे किम् अस्ति किमपि कापि कामपि सङ्ख्यां स्वीकरोतु
एकाधिकशतम् अस्ति चेत् तु शतम् इव भवति
सत्यं
इत्युक्ते अस्तु सहस्रं तदनन्तरम् अप्टु सहस्रं तु समानेव
अपि पुनः तत्र सहस्रमपि तत्र किं तत्र सहस्रमपि नपुंसकलिङ्गे अस्ति अपि तदनन्तरम् अयुतम् अपि नपुंसकलिङ्गे अस्ति लक्षम् अपि अयुत नपुंसकलिङ्गे प्रयुतं कोटिः सर्वं तत्र नपुंसकलिङ्गे अस्ति अतः तत्र केवलम् एतावदेव शतात् प्राक् एव तत्र नियमाः सन्ति तदनन्तरं सुलभमेव भवति
शतं महिलाः समीचीनं महोदय
शतं महिलाः एव वक्तव्यम् इदानीं तत्र महिलाः सन्ति शतं महिलाः सन्ति इदानीं तत्र पुस्तकानि सन्ति उत्पीठिकायाम् इदानीं तत्र तत्र किं ददातु इति वक्तुम् इच्छामश्चेत् तत्र किं वाक्यं किं भवति महिलाः इति पदस्य चतुर्थी चतुर्थी विभक्तिरूपं किम् अस्ति महिलेभ्यः वा
महिलाभ्यः
हा इदानीं
किं
किन्तु तत्र शतमहिलाः सन्ति इदानीं तत्र
ओ शताय
शताय महिलाभ्यः पुस्तकानि ददातु
सर्वाणि पुस्तकानि ददा
हा इति रूपं भवति
अपि च महोदय यदि अहं लिखामि शतं महिलाः तदनन्तरं तु कोऽपि पृच्छति ओ शतम् इति पदस्य लिङ्गं किं वदामि महोदय
लिङ्गं नपुंसकलिङ्गम् इति स्वीकुर्मः समीचीनं भवति
अस्तु यदा अहं वदामि शतं पुरुषाः सन्ति ते तत्तु शतं पुंलिङ्गं स्वीकुर्वन्ति
किन्तु भगिनि तत्र इदानीं तत् क्लेशः मास्तु नपुंसकलिङ्गम् इति स्वीकरोतु सुलभम् अस्ति अस्तु यतोहि तत्र सहस्रं सर्वं तत्र नपुंसकलिङ्गे एव अस्ति अतः तत्र सारल्यार्थं तत्र नपुंसकलिङ्गम् इति स्वीकरोतु तावदेव अस्तु इदानीं तत्र अतः तत्र विशेषणभावः अस्ति एव अतः तत्र पुनः तत्र यद् वयम् उक्तवन्तः तदेव अन्य कोऽपि वदतु एकवारं तत्र प्रिया भगिनी नमस्कारः
नमस्ते महोदय क्षम्यतां
चिन्ता मास्तु भगिनि पुटसङ्ख्या अस्ति 61
अस्तु
अस्तु तत्र शुभदा भगिनी पुनः एकवारं वदति वा भगिनी तत्र एकतः तत्र नवदशपर्यन्तं तत्र द्वैविध्यम् अस्ति तत् किम् इति एकवारं वदति वा
महोदय अद्य किञ्चित् शृणोमि एव
अस्तु अस्तु भगिनि अस्तु अस्तु चिन्ता मास्तु अस्तु अस्तु प्रिया भगिनी वदति वा वक्तुम् इच्छति वा
महोदय अहम् इदानीमेव पुस्तकम् उद्घाटयामि
अस्तु भगिनि, चिन्ता मास्तु, अस्तु अस्तु अस्तु. तर्हि तत्र हा उषा भगिनी किञ्चित् वदतु, तत्र एकतः पञ्च चतुर्पर्यन्तं पूर्वम् उक्तवती, इदानीं तत्र पञ्चतः नवदशपर्यन्तं किं भवति इति.
पञ्चतः आरभ्य,
न पञ्चतः आरभ्य इति मास्तु खलु,
शतं यावत्
तेषां भवती जानाति. पञ्चतः इत्युक्ते किम्?
पञ्च महोदय,
न पञ्चतः इत्युक्ते किं, पञ्च आरभ्य एव खलु?
आम् महोदय, पञ्च
आरभ्य पुनः किमर्थं पञ्चतः आरभ्य इति? पञ्चतः इति एव वद वद, तावत् पर्याप्तं खलु भगिनि?
अस्तु महोदय. नवदशपर्यन्तं नित्य बहुवचनान्त भवन्ति. अष्टन् शब्दस्य अष्ट अपि च अष्टौ इति रूपद्वयं भवति.
भवति तावदेव समीचीनं भगिनि. हा अस्तु, अतः तत्र पञ्चतः नवदशपर्यन्तं नित्य बहुवचनान्ताः भवन्ति. अतः तत्र यदि तत्र रूपं पश्यामः, तत्र पञ्च इति तत्र पञ्च पञ्चभिः पञ्चभ्यः पञ्चभ्यः पञ्चानां पञ्चसु इति बहुवचन रूपमेव अस्ति, किन्तु तदनन्तरं तत्र विंशतिः आरभ्य सर्वम् एकवचने अस्ति इति वर्तते, तावदेव. अस्तु अस्तु, तर्हि तत्र अद्यापि तत्र किञ्चित् अभ्यासः भवतु तत्र. अतः तत्र अग्रे ललिता भगिनी, तत्र इदानीं तत्र किं कुर्मः, तत्र अग्रे तत्र अभ्यासः अस्ति, तत्र पुटसङ्ख्या अस्ति भगिनि 64, तत्र द्वितीय, हा वदतु महोदय.
पञ्चतः नवदशपर्यन्तं लिङ्गं किम् अस्ति? बहुवचनं तु अस्ति परन्तु लिङ्गं किमस्ति?
तत्र लिङ्गं किं दत्तमासीत्? तत्र अत्रैव दत्तम् आसीत् खलु महोदय?
न दत्तम्,
लिङ्गे स्त्रीलिङ्गे नपुंसकलिङ्गे समानमेव अस्ति न, पञ्च पञ्च पञ्च
शब्दवत्, हा हा हा, किन्तु तत्र तस्य लिङ्गं किम् इति, हा सत्यं महोदय,
विभक्ति बहुवचने एव भवति,
परन्तु लिङ्गं किम् अस्ति, बहुवचन तु अस्ति.
लिङ्गं किम् इत्युक्ते किं महोदय,
तस्य पदस्य लिङ्गम् अस्ति वा इति, तत्र
विशेषण विशेष
तत्र, हा तत्र महोदय तत्र किं वदामः, तत्र लिङ्ग तत्र रूपभेदः नास्ति, किन्तु तत्र पदस्य लिङ्गं तत्र नियतलिङ्गं नास्ति इति मन्ये महोदय. तत्र
लिङ्गम् अनुसृत्य विभक्ति,
हा तत्र विशेष्यम् अनुसृत्य तत्र लिङ्गम् इति स्वीकरणीयम् अस्ति तत्र.
क्षम्यताम्, यदा अहम् इत्यस्य त्रिषु लिङ्गेषु समान इति वदामः, तदा खलु तादृशम् अस्ति इति चिन्तयामि.
हा सत्यं भगिनि, हा
अतः किमपि प्रत्येक पृथक् लिङ्गम् इति नास्ति इति.
नास्ति नास्ति, तत्र विशेषणम् इति स्वीकरणीयम् अस्ति तावदेव. विशेषणम् अस्ति चेत् तत्र विशेषस्य
पञ्चैः पुरुषैः, पञ्चभिः महिलाभिः, तत् अस्ति
तत्र. सत्यं महोदय, किन्तु तत्र विशेषणमिति स्वीकरणीयं, किन्तु रूपभेदः नास्ति इति अपि स्वीकरणीयमस्ति.
महोदय अहं वदामि वा किञ्चित्?
वदतु भगिनि, वदतु भगिनि.
पञ्चतः आरभ्य किमपि लिङ्गं नास्ति महोदय, लिङ्गभेदः नास्ति, किमर्थं चेत् नकारान्तः पदं त्रिषु लिङ्गेषु समानमेव अस्ति, ततः एतत् नपुंसिङ्ग सकलिङ्गमेव स्वीकरोति, किमर्थं चेत् प्रथमाविभक्ति अपि च द्वितीयविभक्ति समानम् अस्ति, पञ्च पञ्च पञ्चभिः एतत्, ततः नपुंसकलिङ्गे स्वीकरोति एतत्, परन्तु त्रिषु लिङ्गेषु समानमेव.
अस्तु, तदपि समीचीनमेव अस्ति भगिनि. अस्तु, तत्र पञ्च
त्रिषष्टितमपुटे तत्र यत्र पुंलिङ्गवत् इति लिखितम् अस्ति तत्र पुंलिङ्गरूपाणि दृष्ट्वा रिक्तस्थानानि पूरयति इति दत्तं तत्र शेषं पुंलिङ्गवत् इति दत्तमस्ति महोदय
सत्यं भगिनि अतः तत्र रूपभेदः नास्ति तत्र क्षम्यतां तत्र हा लिङ्गभेदः नास्ति नाम हा
लिङ्गमपि एकम् अस्ति
लिङ्गं यदस्ति तत्र हा तत्र लिङ्ग वदतु महोदय
पुल्लिङ्गे दत्तमस्ति अतः पञ्चतः नवदशपर्यन्तं पुल्लिङ्गे अस्ति अहं चिन्तयामि
न पुल्लिङ्गे दत्तम् इति न तादृशं नास्ति महोदय तत्र यथा तत्र प्रियाभगिनी अपि उक्तवती श्रीप्रियाभगिनी अपि उक्तवती तत्र परिस्थितिः का इत्युक्ते तत्र रूपभेदः नास्ति नाम तत्र यदि पञ्चपुरुषाः पञ्चमहिलाः तत्र समानमेव खलु पञ्चपुस्तकानि हा किन्तु तत्र पञ्चपुरुषाः इति यदि वदामः तत्र पञ्च इति पदस्य लिङ्गं किम् इत्युक्ते तत्र पुल्लिङ्गरूपम् इति स्वीकर्तुं शक्नुमः पञ्चमहिलाः इति तत्र स्त्रीलिङ्गम् इति स्वीकर्तुं शक्नुमः अस्तु किन्तु अस्तु तत्र अतः पञ्चपुस्तकानि तत्र पञ्च नाम नपुंसकलिङ्गपदम् इति स्वीकर्तुं शक्नुमः किन्तु पञ्चन् इति नकारान्तपदम् अस्ति तत्र नकारान्तपदस्य रूपं तत्र तद् अत्र वदामः वा तत्र पुल्लिङ्गरूपं स्त्रीलिङ्गरूपं किम् इति तत्र अतः तत्र प्रिया भगिनी उक्तवती न अत्र तु नपुंसकलिङ्ग नकारान्तनपुंसकलिङ्गपदवत् तत्र पञ्च अस्ति पञ्च अपि सप्तन्स् सर्वं यतोहि तत्र पञ्च पञ्च इति तत्र प्रथमाविभक्ति द्वितीयविभक्ति समानमस्ति अतः तत्र रूपं तत्र रूपं तु नपुंसकलिङ्गवत् अस्ति किन्तु यदि तत्र तस्य लिङ्गं किम् इति प्रश्नः भवति तत्र विशेष्यं दृष्ट्वा एतस्य पदस्य लिङ्गं एतस्य पदस्य लिङ्गं वक्तुं शक्नुमः
महोदय महिलाभिः पञ्चभिः पुरुषैः उत्तममस्ति वा महोदय
सत्यं भगिनि हा तदेव अस्ति समीचीनं भगिनि
समीपे शब्दमञ्जरी इति पुस्तके अस्ति पञ्चन् प्रभृतयः नवदशन् पर्यन्तः पर्यन्ताः शब्दाः हाव् सेम् डिक्लेन्शन् इन् आल् जेण्डर्स् अण्ड् इन् प्लूरल् ओन्ली
तदेव अत्र दत्तमस्ति खलु भगिनि
बट् नकारान्तदेव
अस्मिन् कोष्टके तदेव अस्ति अस्मिन् कोष्टके पुट 63 पेज् मध्ये
बहुवचने
एव अस्ति खलु भगिनि
63
तत्र पञ्चभिः पञ्चभ्यः पञ्चभ्यः पञ्चानां पञ्चसु बहुवचने एव अस्ति
बहुवचने अस्ति लिङ्गपरिवर्तनं नास्ति
अपि नास्ति यतोहि तत्र यद् लिङ्गे रूपाणि दत्तानि सन्ति तदेव समानरूपम् इति उक्तमस्ति अत्र समीचीनं खलु भगिनि
पञ्चभिः पुरुषैः पञ्चभिः महिलाभिः
हा इति भवति समीचीनं महोदय हा सत्यम् अस्तु अस्मिन् विषये किञ्चित् किमपि अन्यत् वक्तव्यं चेत् वदतु प्रिया भगिनी अथवा श्रीप्रिया भगिनी
न महोदय एतदेव
अस्तु हा एतावत् समीचीनमस्ति खलु अतः तत्र नाम तत्र विशेषणम् इति भावः विशेषणभावः अस्ति तत्र लिङ्गभेदः नास्ति अतः तत्र पञ्चपुरुषाः इत्युक्ते तत्र पञ्च इति पदस्य लिङ्गं पुल्लिङ्गं पञ्चमहिलाः इत्युक्ते तत्र लिङ्गं स्त्रीलिङ्गं किन्तु साक्षात् रूपाणि कानि इत्युक्ते पञ्चशब्दस्य तत्र नकारान्तनपुंसकलिङ्गशब्दवत् अस्ति इति तात्पर्यं भवति खलु अस्तु
महोदय पृथक् लिङ्गम् इति किमपि न वदामः अत्र
हा केवलं तत्र विशेषणम् इति विशेषण हा तत्र किन्तु तस्य अग्रे तत्र शतम् इति तत्र नियतलिङ्गम् अस्ति तत्र हा
नित्यनपुंसकलिङ्गं
हा समीचीनं भगिनि अस्तु अतः इदानीम् अग्रे सरामः तर्हि तत्र अग्रे तत्र पुटसङ्ख्या 64 मध्ये तत्र द्वितीयाभ्यासः यत् अस्ति तत्र तत्तु भवन्तः सर्वे कर्तुं शक्नुवन्ति तत्र अतः तत्र वर्गे मास्तु अग्रे तत्र केवलम् अभ्यासार्थं तत्र तृतीय अभ्यासः तत् कुर्मः तदनन्तरं तत्र तृतीयः चतुर्थः पञ्च हा अपि अन्य अभ्यासः अपि तत्र अस्ति तत् तं त्यक्तुं शक्नुमः इति मन्ये तदनन्तरं सुभाषितानि सन्ति अतः तत् कुर्मः अस्तु अतः तत्र विशेष्यमनुसृत्य इति अभ्यासः अस्ति तत्र सुजाता भगिनी आरम्भं करोति वा पुटसङ्ख्या 64
आं महोदय
हा
विशेष्यम् अनुसृत्य विशेषणस्य सङ्ख्यावाचकशब्दस्य उचितेन रूपेण रिक्तस्थानं पूरयत उदाहरणमस्ति एका गायिका गायति द्वितीयमस्ति
वानराः क्रीडन्ति किमर्थं त्रयः समीचीनमस्ति तत्र
त्रयः वानराः बहुवचनम् अस्ति
वानरः बहुवचनम् अपि लिङ्गं किं
लिङ्गं बहु पुंलिङ्गम् अस्ति
अतः त्रयः वानराः
क्रीडन्ति
हा तत्र त्रयः वानराः क्रीडन्ति इति समीचीनम् इदानीं तत्र अस्तु तत्र वेदा भगिनी तत्र त्रयः वानराः क्रीडन्ति तान् पश्यामि अतः तत्र रूपं किं भवति तान्
द्वितीय
तान् त्रयः त्रयः तस्य रूपं तान् त्रिभिः
तान् पश्यामि तान् वानराः अस्ति वानराः स्थाने किं भवति तान्
ओ ओके तान् वानरैः
न वानरान् न वानरान् पश्यामि खलु तान् वानरान् पश्यामि किन्तु तत्र त्रयः वानराः सन्ति अतः रूपं किं भवति तान्
तान् त्रयः वानराः सन्ति तान् वानराभ्यां वा
न वानरान् इति वानरान् एव किन्तु कति वानराः सन्ति तत्र त्रयः खलु अतः त्रयः इति विशेषणं भवति त्रयः इति पदस्य
त्रयस्य इति पदस्य त्रयाणां वानराणां
न त्रयाणाम् इति वानराणां षष्ठी अस्ति त्रिभिः अपि तृतीया विभक्ति अस्ति त्रीन् समीचीनं हा अस्तु अतः तत्र तान् त्रीन् वानरान् अहं त्रीन् वानरान् पश्यामि
ओ अहं त्रीन् वानरान् पश्यामि
तत्र त्रयः वानराः सन्ति अहं तान्
वानरान् पश्यामि
त्रीन् वानरान् पश्यामि इति समीचीनं भगिनि तदेव तावदेव अस्तु समीचीनं धन्यवादः भगिनि अस्तु अग्रे तत्र प्रिया भगिनी अग्रे करोति वा
आं महोदय
पुस्तके स्तः इति
द्वे पुस्तके स्तः
हा इदानीं तत्र तत्र षष्ठी तत्र पृच्छतु तत्र वयम् इदानीं न चिन्तयतु तत्र पुस्तके स्तः किन्तु कस्य पुस्तकं पुस्तके इति न जानीमः अतः तत्र तत्र किं केषां द्वयोः
द्वयोः पुस्तकयोः कस्याः
पुस्तक तत्र द्वयोः पुस्तकयोः तत्र किं वदामः
कस्याः अस्ति प्रश्नः
हा तत्र द्वयोः हा अस्तु हा द्वयोः हा द्वयोः पुस्तकयोः नाम महाभारतम् महाभारतम् अस्तु अस्तु समीचीनं तादृशम् अस्तु अग्रे तत्र श्रीप्रिया भगिनी अग्रे
पञ्चसेवकाः सन्ति
हा इदानीं तत्र ते सन्ति तैः सह तत्र कोऽपि तत्र नगरं गच्छति अतः तत्र किं भवति
पञ्चभिः सेवकैः सह सेविकाः अपि गच्छन्ति नगरं गच्छन्ति
हा इति समीचीनम् अस्तु अग्रे तत्र शोभा भगिनी
क्षम्यताम् अत्र अहं दृश्यं प्रेषितवती महोदय तत्र सन्तपरिचयम् अस्ति इति
ओ धन्यवादः भगिनी तत्र सर्वेषां कृते अस्ति खलु भगिनी एतत्
आमां सर्वेषां कृते एव
अस्तु अस्तु भगिनी हा अस्तु ओ अस्तु भगिनी पञ्च
त्रिशुलिङ्गेषु समान नियत बहुवचनं सः इति
हा 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 समीचीनं भगिनी धन्यवादः अस्तु समीचीनं धन्यवादः भगिनी अस्तु
धन्यवादः
धन्यवादः अस्तु अग्रे तत्र शोभगिनी अग्रे अग्रिमं करोतु
अग्रे सेवकाः पञ्च
तत्कृतम् अग्रे
पञ्च कमलानि सन्ति
पञ्च कमलानि सन्ति अस्तु तत्र तैः तत्र तैः इति अथवा अन्या विभक्तिरूपं किमपि वदति वा तत्र
तत्र किं तत्र पञ्चभिः पञ्चभिः कमलैः पूजां कृतम्
पूजां कृतम् अस्तु पूजां पूजा कृता इति प्रायशः अथवा खलु पूजाम् इति
पूजा ओ अस्तु तत्र पूजा
पूजा अस्ति चेत् पूजा पूजा कृता इति प्रायशः
भवति क्षम्यतां
स्त्री पूजा कृता अस्तु अस्तु समीचीनम् अस्तु नरेश महोदय अग्रे
महोदय एकं पुष्पं पतति एकं पुष्पं पतति
अस्तु इदानीं तत्र अन्यविभक्तिरूपं किमपि वदतु
अहं एकं पुष्पं पश्यामि एकस्मात् पुष्पात् किमपि पतति
न न पुष्पात् अस्तु अस्तु अथवा तत्र एकेन पुष्पेन पूजां करोमि तदपि भवति
एकेन
पुष्पेण
पुष्पेण पूजा करोमि
पूजां करोमि अस्तु पूजयामि अस्तु तदपि हा पूजयामि अपि समीचीनं धन्यवादः भगिनी अस्तु हा अग्रे तत्र गीताञ्जलि भगिनी अग्रे
तत्र सप्तमं बिन्दु महोदय धेनवः चरन्ति धेनवः तिस्रः धेनवः चरन्ति अपि च चतुर्थी विभक्ति अस्ति चेत् तिसृभ्यः धेन्वै
धेनुः इति स्त्रीलिङ्गे अस्ति खलु
धेनुभ्यः क्षम्यताम् तिसृभ्यः धेनुभ्यः किं मालाः मालाः प्रेषयन्तु अस्तु
मालाः प्रेषयन्तु अस्तु
समीचीनं महोदय
मालाः धेनुभ्यः प्रेषयन्तु अस्तु अथवा मालाः मालाः दद् अस्तु ददातु ददातु
ददातु
अस्तु अस्तु हा ददातु हा ददातु अस्तु अस्तु समीचीनम् अस्तु अग्रे
अधुना वक्तुं शक्नोमि महोदय
अस्तु भगिनि वंशीसुधा भगिनि अधुना करोतु भगिनि
अधुना अस्तु मार्जालाः धावन्ति तत्र पञ्च अस्ति पञ्चमार्जालाः धावन्ति यतोहि पञ्च इति नित्य बहुवचनशब्दः अस्ति परन्तु अन्य विभक्तीन अन्येषां विभक्न
अन्यविभक्तिरूपं वदतु
अन्यविभक्तिरूपम् इति वदामः मार्जालाः अस्ति तत्र मार्जालेभ्यः तत्र यदि षष्टि उपयोगं मार्जालानां पञ्चानां मार्जालानां मार्जालानां
पृष्ठतः
अहं गच्छामि
पृष्ठतः तत्र शुनकः धावति
धावन्ति पञ्चानां मार्जालानां पृष्ठतः शुनकाः धावन्ति
शुनकः धावन्ति समीचीनं हा अस्तु उत्तमं भगिनि अस्तु अग्रे सुजाता भेदा भगिनी अग्रे
महोदय द्वे लेखन्यौ स्तः लेखनी स्त्रीलिङ्गे अस्ति द्वे लेखन्यौ स्तः द्वे तत्र कर्मपदमस्ति द्वे लेखनीं द्वे लेखनीं ददामि अहं द्वे लेखनीं ददामि
न इदानीं तत्र द्वे इति वचनं किं
द्वे स्त्रीलिङ्गे
न वचनं किं
वचनं द्वे द्विवचनं द्वे
तत्र नदी इति नदी नद्यौ
लेखन्यौ द्वे लेखन्यौ तत्र लेखन्यौ एव आयाति
लेखनीयं नदी नद्यौ नद्यः नदीं नद्यौ तदनन्तरं बहुवचने किं द्वितीयविभक्तौ नदीं नद्यौ
द्वे लेखन्यौ अहं द्वे लेखन्यौ ददामि
उत्तमं भगिनि अस्तु समीचीनं हा अस्तु अग्रे सुजाता भगिनि
उपवेदाः सन्ति चत्वारि उपवेदाः सन्ति चत्वारः उपवेदाः सन्ति
इदानीं तत्र अन्या विभक्ति वाक्यं वदतु
चत्वारेषु उपवेदेषु
न न तत्र चत्वारिषु न चतुर्षु इति
चतुर्षु चतुर्षु उपवेदेषु उत्तमाः विषयाः सन्ति
बहु समीचीनं भगिनि अस्तु समीचीनम् अस्तु अग्रे शुभदा भगिनि
आं महोदय वदामि वा
वदतु भगिनि
ताः त्रीणि कन्दुकानि क्रीणन्ति त्रीणि कन्दुकानि क्रीणन्ति ताः एकनिमिषम् ताः त्रिषु कन्दुकेषु
तत्र अथवा तत्र नामानि लिखन्ति
ताः तिसृभिः कन्दुकैः क्रीडन्ति.
किमर्थं तिसृभिः?
त्रिभिः.
हा त्रिभिः, त्रिभिः, हा समीचीनं. त्रिभिः
कन्दुकैः क्रीडन्ति.
कन्दुकैः क्रीडन्ति, समीचीनम्. अस्तु, हा अग्रे धन्यवादः भगिनि. अस्तु अग्रे ललिता भगिनि.
वदामि, वदामि महोदय.
आं वदतु भगिनि.
क्रीडकानि. एकः वृद्धः गच्छति. वृद्धः पुल्लिङ्गे अस्ति. एकः वृद्धः गच्छति.
अन्या विभक्ति.
अन्या एकस्मिन् स्थले बहवः पुरुषाः.
किन्तु तत्र केवलं वृद्धः गच्छति, न न, एकः वृद्धः गच्छति. एकः वृद्धः इति पदस्य अन्यविभक्तिरूपम्.
एकस्मिन् एकस्मिन् सप्तमी विभक्ति अस्ति.
अस्तु, किन्तु वृद्धः किं भवति? एकः वृद्धः इति तत्र विशेषणविशेषभावः अस्ति यत् अतः
सेम् समान
अतः तत्र शब्द एकः वृद्धः एकं वृद्धम् एकेन वृद्धेन इति हा तादृशम् उपयुज्य वदतु वाक्यम्.
एकैः वृद्धैः सह
न न एकैः गतं भवति. एकैः तु बहुवचने अस्ति खलु भगिनि.
एकेन एकेन
हा एकेन वृद्धेन हा सः
एकेन वृद्धैः
वृद्धेन वृद्धेन एकवचनं
एकेन वृद्धेन सः अस्य पुत्रः चलति.
हा समीचीनं. हा अस्तु उत्तमम्. अस्तु अग्रे श्रीप्रिया भगिनी.
अहं वदामि महोदय.
हा हा अग्रे वदतु भगिनि. हा
सः पञ्चफलानि चिनोति. पञ्च एव उपयोगं कुर्मः करोमि वा महोदय, अथवा पञ्चभ्यः अपि
अन्या विभक्ति अपि करोतु भगिनि.
पञ्चभ्यः वर्षेभ्यः पूर्वं घटिता घटनम् अहं न
न न न तत्र पञ्चफलानि इति तस्य अन्या विभक्तिरूपं केवलं पञ्च इति पदस्य न पञ्चफलानि उपयुज्य
पञ्चफलानि
अतः तत्र पञ्चानां फलानाम् इति तादृशम् अथवा पञ्चसु फलेषु इति तादृशं किमपि
पञ्चसु फलेषु आम्रफलम् उत्तमम्
तादृशम्. अस्तु समीचीनम्. हा अस्तु अथवा तत्र पञ्चसु फलेषु अहम् एकम् इच्छामि
इति अथवा स्वीकरोमि
हा इति समीचीनं. हा अस्तु अग्रे श्रीप्रिया भगिनी.
द्वौ युवकौ क्रीडतः. द्वाभ्यां युवकाभ्याम् अहं पुस्तकं स्वीकरोमि.
द्वाभ्यां युवकाभ्याम् अहं पुस्तकं स्वीकरोमि. तत्र विभक्ति का तत्र?
पञ्चमी.
पञ्चमी. हा समीचीनं भगिनि. अस्तु शोभा भगिनी अग्रे.
आं महोदय. ते तत्र उत्पीठिकाः स्थापयन्ति. तत्र चत्वारः चत्वारः न न चतस्रः उत्पीठिकाः स्थापयन्ति. अधुना अस्तु ताभिः ताभिः चतुस्रुभ्यः उत्पीठिकाभ्यः
ताभिः अथवा ताभ्यः
तत्र न तत्र किमपि कृतम् इति वक्तुम् इच्छामि.
ओ अस्तु 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 अस्तु.
ते इति स्त्रीलिङ्गे तु द्विवचने भवति. ते इति पुंलिङ्गे स्वीकरोमि. तेभ्यः तेभ्यः अपि च तत्र चतुस् उत्पीठिका स्त्रीलिङ्गे चतुसृभिः चतुसृभिः किं न एकनिमिषं महोदय. तेभ्यः चतुर्षु उत्पीठिकासु किं उपरि न उपरि चतुर् क्षम्यताम् एकनिमिषं महोदय. तेभ्यः चतुसृणाव् उत्पीठिकानां किमपि स्वीकृतम् इति वक्तुम् इच्छामि तत्र.
अथवा तत्र तत्र तासाम् उत्पीठिकानाम् उपरि
तदेव महोदय
उपरि उपरि तत्र फलानि
उत्पीठिकानाम् उपरि
फलानि स्थापयन्ति वस्त्राणि स्थापयन्ति. हा समीचीनम् अस्तु तत्र अस्तु समीचीनमेव अस्तु. नरेश महोदय अग्रे.
महोदय अष्ट अष्ट आसन्दाः सन्ति अष्ट आसन्दाः सन्ति अष्टेषु आसन्दासु
न अष्टेषु न अष्टसु खलु
अष्टसु अष्टसु आसन्दासु एका तु सम्यक् नास्ति.
अष्टसु आसन्देषु आसन्देषु आसन्दः आसन्दः इति पुल्लिङ्गे अस्ति.
आसन्देषु
आसन्देषु अष्टसु आसन्देषु
आसन्देषु एकः सम्यक् नास्ति
एकः सम्यक् नास्ति समीचीनं महोदय. अस्तु अस्तु
महोदय. ब्रोकन् इति कथं वदामः महोदय?
ब्रोकन् तत्र किं नष्टः
ब्रोकन्
नष्टः
नष्टः
खण्डितः
खण्डितः. अस्तु समीचीनं. पीसस् भग्नः भग्नः
छिद्रः अपि भवति वा महोदय?
किं भगिनि?
छिद्र छिद्रः
हा हा तादृशमपि तादृशपदमपि अस्ति भगिनि. हा हा हा
छिद्र
तस्मिन् अर्थे प्रायशः अस्ति. हा प्रायशः तादृशं पदमस्ति भगिनि. हा अस्तु अग्रे वंशी सुधा भगिनि अग्रे.
आं महोदय करिष्यामि.
वर्णकारः
आसन्दः सप्तदश अस्ति. वर्णकारः वर्णान् लेपयति सप्त वर्णकारः सप्त इति न सप्तवर्णान् लेपयन्ति
लेपयति
लेपयति वर्णकारः सप्त सप्तन् शब्दः किल सप्तेभ्यः न सप्तेभ्यः भवति वा
सप्तभ्यः सप्तभ्यः तत्र पञ्चभ्यः
सप्तन् नकारान्तशब्दः सप्तन् सप्तभ्यः वर्णे वर्णेभ्यः सप्तभ्यः वर्णेभ्यः अतिसुन्दरं चित्रं वर्णकारः सप्तभ्यः वर्णेभ्यः पञ्चमी उपयोगं कुर्मः वा एकं सुन्दरं चित्रं करोति वा लेपयति इति न वक्तुं शक्नोमि.
तृतीया भवति वा भगिनि?
तृतीयप्रायः अस्ति.
अस्तु तर्हि वर्णकारः सप्तभिः वर्णैः वर्णः इति पुल्लिङ्गशब्दः किल महोदय वर्णैः सुन्दरं चित्रं करोति इति वक्तुं
हा सुन्दरं चित्रं करोति हा समीचीनं भगिनि अस्तु अग्रे प्रिया भगिनि
आम् महोदय दश अङ्गुल्यः सन्ति कुम्भकारः दशसु अङ्गुल्येषु अङ्गुल्येषु क्षम्यतां कुम्भकारः दशभिः अङ्गुल् अङ्गुल्यैः घटं निर्माति
हा समीचीनं भगिनि अस्तु
अङ्गुलिभिः न
अङ्गुल्यः ओ क्षम्यतां हा हा अङ्गुल्यः अङ्गुली अङ्गुलिभिः अङ्गुलिभिः धन्यवादः धन्यवादः भगिनि हा समीचीनम्
अहं समीचीनं वाक्यं वदामि इदानीं कुम्भकारः दशभिः अङ्गुलिभिः सः घटं निर्माति
निर्माति समीचीनम् अस्तु अग्रे श्रीप्रिया भगिनि
षट् महाविद्यालयाः विद्यन्ते
षट्
नेता षड् महाविद्यालये बालकः मातापितरौ षड् महाविद्यालयाः पुत्राय पश्यन्ति
ओ अस्तु तत्र न न महाविद्यालयाः तत्र विद्यालयः हा महाविद्यालयान् हा अस्तु तत्र हा तत्र षट् इति तत्र परिवर्तनं न भवति अतः तत्र षड् एव तिष्ठति अस्तु समीचीनं भगिनि हा अस्तु अस्तु तर्हि अग्रे तत्र सुजाता भगिनि अग्रे
महोदय नवरसाः सन्ति नवरसाः सन्ति काव्येषु
भवत्याः ध्वनिः न श्रोतुं शक्यते भगिनि
किञ्चित् उच्चैः वदतु भगिनि सुजाता भगिनि
न्यूना
वदतु इदानीं वदतु तत्र नवरसाः सन्ति
नवरसाः सन्ति काव्येषु नवासु
नवसु
नवसु नवसु
तत्र रसः इति पुल्लिङ्गः इति मन्ये
नवरसाः प्रकटनम्
ओ अस्तु तत्र तेषां प्रकटनम् इति वा
आम् महोदय
अस्तु अत्र नव इति पदस्य षष्टिविभक्ति किम् अस्ति
षष्टि नवानां षष्टि
तत्र पञ्च इति दृष्ट्वा तत्र पञ्च पञ्चानाम् अतः तत्र
पञ्चानां
रसानां रसा रसान्
रसानां
तत्र प्रायशः तत्र रसानां
रसानां
उपयोगः वर्तते
वर्तते
इति हा समीचीनं भगिनि अस्तु
अहमेकं वाक्यं वदामि वा महोदय
वदतु भगिनि वदतु
नर्तकः नवसु रसेषु तस्य नृत्याविष्कारः प्रदर्शयति
हा अस्तु तस्य किं प्रदर्शयति
नृत्याविष्कारः
नर्तनः
प्रदर्शयति
प्रदर्शयति समीचीनं भगिनि हा हा समीचीनम् उत्तमं नवरसेषु
पुनः एकवारं वदतु भगिनि कृपया पुनः एकवारं
वदतु कृपया
नर्तकः
नवसु रसेषु तस्य नृत्याविष्कारः प्रदर्शयति अथवा नर्तनं प्रदर्शयति नृत्यं प्रदर्शयति
समीचीनं भगिनि
नृत्याविष्कारः इत्युक्ते लिटिल्
धन्यवादः
उत्तममस्ति भगिनि अस्तु अस्तु इदानीम् अग्रे सरामः तर्हि वदतु भगिनि
मातापितरौ इति वदामः पश्यतः इति आगच्छति वा मातापितरौ
हा सत्यं भगिनि पश्यतः हा सत्यं सत्यं भगिनि हा तत्र मातापितरौ इति किमर्थम् एकवचने आसीत् इति अहमपि न हा सत्यं भगिनि हा तत्र पुत्राय तत्र षड् महाविद्यालयाः
महाविद्यालयान्
महाविद्यालयान्
पश्यतः
पश्यतः समीचीनं भगिनि हा अस्तु अस्तु समीचीनम् अस्तु अग्रे ललिता भगिनि अग्रिम अभ्यासः आरम्भं करोति वा
कोष्टके विद्यमानानि पदानि चित्वा रिक्तस्थानेषु योजयत अद्य मम गृहं प्रति त्रयः अतिथयः आगताः तस्मिन् ग्रामे संस्कृतगृहाणि सन्ति चत्वारि संस्कृतगृहाणि सन्ति तस्मिन् ग्रामे चत्वारि संस्कृतगृहाणि सन्ति
सन्ति समीचीनम् अस्तु अग्रे उषा भगिनी धन्यवादः भगिनी समीचीनं
धन्यवादः
मा खादतु द्वाभ्याम् अस्ताभ्यां मा खादतु
हा समीचीनम् अस्तु अग्रे गीताञ्जलि भगिनि
तत्र मासेषु चैत्रः प्रथमः इति तु द्वादशसु मासेषु चैत्रः प्रथमः
हा समीचीनम् उत्तमम् अस्तु शोभा भगिनी अग्रे
एकस्यां लतायाम् एव पुष्पाणि सन्ति
हा एकस्यां लतायाम् एव पुष्पाणि सन्ति समीचीनं नरेश महोदय अग्रे
नर्तकीनां नृत्यं पश्य नर्तकीनां तिस्रणां नर्तकीनां नृत्यं पश्य
हा तिसृणां इति भवति पञ्चनामपि भवति किन्तु तिसृणम् इति स्वीकुर्मः अत्र अस्तु समीचीनं महोदय हा वेदा भगिनी अग्रे
आं महोदय काव्यानां लेखनेन सह विख्यातः पञ्चानां काव्यानां लेखनेन सह विख्यातः
हा समीचीनम् अस्तु अस्तु अग्रे शुभदा भगिनी भवती वदतु अग्रे
सः राजा वीरैः सह युद्धं कृतवान् सः राजा दशभिः वीरैः सह युद्धं कृतवान्
हा समीचीनं दशभिः वीरैः सह युद्धं कृतवान् अस्तु प्रिया भगिनी अग्रे
पञ्चभ्यः ग्रामेभ्यः जनाः आगतवन्तः
पञ्चेभ्यः
ओ क्षम्यतां षड्भ्यः
अस्तु अस्तु हा अस्तु षड्भ्यः ग्रामेभ्यः जनाः आगतवन्तः तत्र विभक्ति का तत्र
पञ्चमी
पञ्चमी हा समीचीनं तस्मात् इति हा अस्तु वंशीसुधा भगिनी
आं महोदय दशमवाक्यमस्ति बालिकाभ्यः पारितोषकं दत्तवान् तत्र तु चतुर्थी अपेक्षितं चतुस्रुभ्यः बालिकाभ्यः पारितोषकं दत्तवान्
समीचीनं चतुर्थी हा चतुस्रुभ्यः अपि चतुर्थी विभक्तिः अस्तु समीचीनम् अस्तु श्रीप्रिया भगिनी अग्रे
भारतस्य यशः दिक्षु व्याप्तम् अस्ति. भारतस्य यशः चतसृषु दिक्षु व्याप्तम् अस्ति.
हा, चतसृषु दिक्षु व्याप्तम् अस्ति. समीचीनम्. अस्तु, इदानीं सुजाता भगिनी.
आं महोदय, सा आपणतः श्रूयते वा महोदय?
श्रूयते भगिनि.
सा आपणतः लेखनी चत्वारि लेखन न लेखनी तिस्रः लेखनीं क्रीणाति.
हा, तत्र तिस्रः इति पदस्य विभक्ति का? तत्र
तिस्रः प्रथमविभक्ति,
किन्तु लेखनीः इति विभक्ति, लेखनी इति पद
लेखनी द्वितीया विभक्ति,
द्वितीया विभक्ति. हा, तत्र तिस्रः समानमस्ति, प्रथमा विभक्ति वा द्वितीया विभक्ति वा. हा, अतः तिस्रः समीचीनमेव, किन्तु विभक्ति तत्र तु द्वितीया. अतः तत्र हा, पूर्णवाक्यम् एकवारं वदतु. सा
आपणतः तिस्रः लेखनीं क्रीणाति.
लेखनीः क्रीणाति.
क्रीणाति.
समीचीनं भगिनि. अस्तु अस्तु, इदानीम् अग्रे वेदा भगिनी अग्रिमम् अभ्यासम् आरम्भं करोति वा?
आं महोदय. आवरणे विद्यमानसङ्ख्यानुगुणं रिक्तस्थानं पूरयत. एकस्मिन् ग्रामे युवकः चत्वारः युवकाः आसन्.
हा, समीचीनम्. अग्रिममपि करोतु तत्र. ते
अपि विविधशास्त्राणि जानन्ति. ते चत्वारः, ते बहुवचनमस्ति तत्र, सः तौ ते चत्वारः, तस्य बहुवचनरूपमस्ति. चत्वारः एव विविधशास्त्राणि जानन्ति स्म.
हा, तावदेव. चत्वारः द्विवारम् आगच्छति. समीचीनं भगिनी. अस्तु, नरेश महोदय अग्रे.
आं महोदय, तेषु अत्र युवकेषु सप्तमी अस्ति. तेषु चतुर्षु युवकेषु युवकं प्रथम, एकं युवकं विहाय अन्यत् त्रयः युवकाः मूर्खाः आसन्.
हा, इति समीचीनं. तेषु
चतुर्षु युवकेषु एकं युवकं विहाय अन्ये त्रयः युवकाः मूर्खाः आसन्.
मूर्खाः आसन्, समीचीनम्. अस्तु, अग्रे ललिता भगिनी.
तत्र पूर्वस्मिन् वाक्ये चत्वारि अपि विविधशास्त्राणि खलु, नपुंसकलिङ्गे अस्ति इत्युक्ते?
न, ते जानन्ति, ते नाम युवकाः जानन्ति खलु.
अस्तु अस्तु,
ते चत्वारि शास्त्राणि न, किन्तु ते युवकाः खलु.
अस्तु अस्तु,
समीचीनं भगिनि. हा, अस्तु. हा, ललिता भगिनी अग्रे. कदाचित् इति
कदाचित् ते वनमार्गेण गच्छन्ति स्म. ते वनमार्गेण तृतीया अस्ति. ते एकेन वनमार्गेण गच्छन्ति स्म.
अग्रे, तदा
वृक्षस्य अधः राजसिंहस्य मृतशरीरं दृष्टवन्तः. तदा वृक्षस्य षष्टिविभक्ति, एकस्य वृक्षस्य अधः, सिंहस्य अपि षष्टिविभक्ति, अधः एकस्य सिंहस्य मृतशरीरं दृष्टवन्तः.
हा, इति समीचीनम्. अस्तु, अग्रे गीताञ्जलि भगिनि.
श्रूयते न?
श्रूयते भगिनि, श्रूयते भगिनि. समीचीनं. अस्तु,
अग्रे पठामि वा?
न, अग्रे गीताञ्जलि भगिनी पठति. धन्यवादः भगिनी.
अस्तु महोदय, मृतं सिंहं दृष्ट्वा चतुर्षु युवकेषु एकः युवकः उक्तवान् मित्राणि अस्माकं शास्त्रज्ञानस्य परीक्षणार्थम् उत्तमः अवसरः प्राप्तः। वयं मन्त्रशक्तिप्रयोगेण एनं मृतं सिंहं सजीवं कारयामः इति।
इति समीचीनम्। अस्तु, अग्रे शोभा भगिनी।
आम् महोदय। तत् श्रुत्वा द्वौ युवकौ तस्य वचनम् अङ्गीकृतवन्तौ, परन्तु बुद्धिमान् युवकः तेषां निर्णयं न अङ्गीकृतवान्। सः तान् तत्र तत्र किं भवति, तान् त्रीन् अपि सुहृदः उक्तवान्, भोः कृपया एनं सिंहं मा जीवयन्तु, यदा सः प्राणान् धारयति तदा अस्मान् तत्र किं चत्वारि अस्मान् चतुरः भवति तत्र
चतुरः
अस्मान् चतुरः अपि मारयति
अस्मान् चतुरः अपि मारयति। अस्तु, समीचीनम्। अग्रे
अतः एतम् उद्यमं परित्यजन्तु इति
समीचीनम्। अस्तु, अग्रे उषा भगिनी।
आं महोदय। परन्तु त्रयः अपि मूर्खाः तस्य वचनं न श्रुतवन्तः। ते सिंहं जीवयितुम् आरभन्त। तदा बुद्धिमान् युवकः समीपस्थं वृक्षम् एकं वृक्षम् आरुह्य उपविष्टवान्।
समीचीनम्। अस्तु, अग्रे श्रीप्रिया भगिनी, अग्रे।
तदा बुद्धिमान् युवकः समीपस्थम् एकं वृक्षम् आरुह्य उपविष्टवान्। ततः तेषां त्रयाणां युवकानां मन्त्रप्रयोगेण सिंहः प्राणान् अधरत्। नितरां बुभुक्षितः सः झटिति एव तान् त्रीन् अपि युवकान्
अमारयत्। समीचीनम्। अस्तु, समीचीनम्। अस्तु, तर्हि तत्र उत्तममस्ति। इदानीं तत्र अग्रिम अभ्यासः यः अस्ति तत्र तम् अभ्यासं तत्र सुलभतया कर्तुं शक्नुवन्ति इति मन्ये। अपि तत्र पूर्वस्मिन् पुटे अपि तत्र अभ्यासः यः आसीत् तत्र द्वितीय अभ्यासः तदपि
महोदय तत्र पूर्वस्मिन् पुटे सः तान् त्रयः अपि सुहृदः उक्तवान्। सुहृत् इति
पुल्लिङ्गः एव सुहृत् न उक्तवान् इति तत्र उक्तवान् इति अस्ति। कर्तृपदं किम् अस्मिन् वाक्ये?
सः उक्तवान्।
हा, अतः तत्र सुहृदः इति किं भवति? अतः तत्र
त्रयः
त्रीन् इति अतः विशेषणमस्ति इति कृत्वा
विशेषणं भवति वा, नो चेत् कर्मपदं भवति
वा? त्रीन् इति कर्मपदम् अस्ति, यतोहि तत्र त्रीन् सुहृदः
इति
त्रीन् इति कर्मपदं त्रीन् सुहृदः इति कर्मपदं
सुहृदः एव भवति। अस्तु, सत्यं। सुहृदः इति द्वितीयविभक्ति सुहृदः
सुहृद्भिः तत्र भवतः इव खलु
भवतः एव महोदय
अतः सुहृदः इति
कर्मपदमस्ति। सुहृदः इत्यस्य विशेषणमस्ति, परन्तु उक्तवान् इत्यस्य कर्मपदं
न न सत्यं सत्यं सत्यं
सत्यं
न सत्यमेव न सत्यं हा न अस्तु तर्हि अस्तु तत्र शुभदभगिनी अन्ते शान्तिमन्त्रं वदति।
क्षम्यतां
महोदय। वदतु भगिनि।
ते सिंहं जीवयितुम् आरभन्त इति अस्ति खलु महोदय, आरभन्त इति लङ्लकारस्य प्रथमपुरुषबहुवचनं वा?
आरभन्त
आत्मनेपदी
आत्मनेपदी अस्ति सत्यं भगिनी हा
लङ्लकारस्य प्रथमपुरुष बहुवचनं
बहुवचनं
लङ्लकारः
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 हा हा सत्यं भगिनि हा तत्र तत्रैव तत्र एतद्रूपम् अस्ति खलु सत्यं सत्यं भगिनि हा तत्र आरभते इति अस्ति खलु तत्र आत्मनेपदी दातु आरभते हा आरभते इति अस्तु समीचीनम् अस्तु हा धन्यवादः भगिनि अस्तु शुभद भगिनी वदति वा
आं महोदय ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्तिः श्रीगुरुभ्यो नमः धन्यवादः महोदय
धन्यवादः भगिनी धन्यवादः